सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय।
धन्यवादः
सर्वेषां स्वागतम् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगः। अहं चिन्तयामि तत्र सप्ताहत्रयं प्रायशः तत्र वयं तत्र वर्गः नासीत् प्रायशः, अतः तत्र किञ्चित् पुनस्मरणं कुर्मः, तदनन्तरम् अग्रे सरामः। तत्र भावे प्रयोगः, कर्मणि प्रयोगः च, तत्र अस्माकम् अंशद्वयः अस्ति, अंशद्वयमस्ति स्मर्तव्यं। तत्र प्रथम अंशः अस्ति तत्र आकारः, तत्र भावे प्रयोगः कर्मणि प्रयोगस्य आकारः कीदृशः इति प्रथमः अंशः, अपि तस्य पदं तत्र कानि पदानि सन्ति येषां तत्र परिवर्तनं भवति इति। अतः किञ्चित् पुनस्मरणं कुर्मः, तदनन्तरम् अग्रे सरामः। तत्र अपि अस्माकं मूलविषयः अस्ति तत्र भावे कर्मणि प्रयोगः लोट् लकारे, अतः तत्र प्रथमतया लट् लकारे कथं, तदनन्तरं लोट् लकारे कथम् इति। अस्तु, तर्हि लता भगिनी नमस्कारः, शोभा भगिनी नमस्कारः।
नमस्ते महोदय।
नमस्कारः। अस्तु, तर्हि तत्र वेदा भगिनी, तत्र पट् पठति इति धातुं स्वीकुर्मः, बालकः ग्रन्थः, बालकः ग्रन्थं पठति। इदानीं तत्र कर्मणि प्रयोगे किं भवति, रूपं किं भवति?
बालकः पाठं पठति वा
ग्रन्थं? ग्रन्थं पठति,
ग्रन्थं
पाठः पाठं पठति, तदपि स्वीकर्तुं शक्नुमः। अस्तु, बालकः पाठं पठति,
बालकेन पाठः पठति, बालकेन पाठं पठ्यते,
बालकेन
पाठः पठ्यते।
हा, अतः तत्र भवती किं किं कृतवती
तत्र? कर्ता कर्ता कर्तारस्य विभक्ति भवति, तृतीया विभक्ति भवति कर्मस्य,
कर्तु अथवा कर्तृपदस्य,
कर्तृपदस्य कर्म कर्मपदस्य प्रथमा विभक्ति भवति, अपि च क्रियापदं कर्मपदम् आश्रित्य तस्य रूपं भवति।
हा, समीचीनम्। अस्तु, इदानीं तत्र बालकः,
बालकः कर्ता, ग्रन्थं कर्म अस्ति कर्तरिप्रयोगे, तस्य कर्ता बालकः कर्ता अस्ति, तस्य तृतीया विभक्ति अस्ति बालकेन, कर्म अस्ति ग्रन्थं, ग्रन्थस्य प्रथमा विभक्ति भवति तत्र ग्रन्थः, पठति तस्य कर्मणि प्रयोगे तस्य रूपमस्ति पठ्यते, प्रथमा विभक्ति भवति, तस्य कर्म आश्रित्य तस्य विभक्ति भवति पठ्यते,
प्रथमविभक्ति इति न, किन्तु एकवचने भवति,
एकवचने, एकवचने,
एकवचने प्रथमपुरुषे,
प्रथमपुरुषे एकवचने तस्य रूपं भवति पठ्यते।
समीचीनम्। अस्तु, उत्तमं भगिनि। अस्तु, अग्रे इदानीं सुजाता भगिनी, इदानीं तत्र बालकः पाठं पठति इति आसीत्, इदानीं तत्र बालकः पाठान् पठति, तत्र कर्मणि रूपं किं भवति?
बालकेन पाठाः पठ्यन्ते।
हा, अतः किं कृतवती भवती? सत्यमस्ति,
बालकः प्रथमपुरुषे प्रथमाविभक्ति एकवचनम् अस्ति, तस्य तृतीयाविभक्ति भवति बालकेन, पाठान् द्वितीयाविभक्ति बहुवचनम् अस्ति, प्रथमाविभक्ति भवति पाठाः, पठ्यते पठ्यन्ते भवति, पाठान् पाठाः भवति बहुवचनम्, इच्छनेन पठ्यन्ते भवति।
हा तत्र बालकः पाठान् पठति तत्र पठति इति एकवचनम् आसीत् किमर्थम् एकवचने आसीत्
पाठः एकवचनं बालकः
आम् कर्तृप्रयोगे किमर्थम् एकवचने
प्रयोगे कर्ता एकवचनम् अस्ति
कर्ता एकवचने हा कर्तृप्रयोगे अत्र कर्तर कर्तृपदम् एकवचने
कर्तारम् अनुसृत्य पठति भवति पाठम्
अस्तु कर्मणि प्रयोगे क्रियापदम्
क्रियापदं कर्मपदम्
किं पदम् अनुसरति कर्मपदम् अनुसरति
क्षम्यतां
सत्यं समीचीनं पाठाः इति अस्ति अतः पाठाः पठ्यन्ते
अतः
पाठाः पठ्यन्ते इति अस्ति अस्तु समीचीनम् अस्तु इदानीं ललिताकुमारी भगिनी धन्यवादः भगिनी हा अग्रे ललिता भगिनी इदानीं तत्र बालकाः पाठं पठन्ति इति अस्ति चेत् तत्र कर्मणि प्रयोगे रूपं किं भवति
बालकाः पाठं पठन्ति बालकैः पाठः पठ्यते
कथं समीचीनमेव किन्तु किञ्चित् वदतु किं किं कृतवती इति
कर्मपदं कर्मपदं
कर्तृप्रयोगे किं किम् आसीत् प्रथमतया वदतु तदनन्तरं कर्मणि प्रयोगे किं किम् अस्ति इति वदतु
आम् कर्तरिप्रयोगे सर्वदा कर्तृपदं कर्मपदं कर्तृपदम् एव अनुसरति
न न क्रियापदं क्रियापदं
क्रियापदं कर्तृपदम् अनुसरति
हा क्रियापदं कर्तृपदम् अनुसरति समीचीनम्
अतः
अपि कर्मपदस्य द्वितीयाविभक्तिः समीचीनम् अत्र कर्तृपदम् अस्मिन् वाक्ये बालकाः इति अस्ति तत्र वचनं किं
वचनं बहुवचनं
बहुवचनम् अतः क्रियापदस्य अपि बहुवचनं
बहुवचनमेव भवति
पठन्ति इति अस्ति अपि तत्र क्रियापदस्य तत्र क्रियापदं प्रथमपुरुषे अस्ति वा द्वितीयपुरुषे वा उत्तमपुरुषे मध्यमपुरुषे वा उत्तमपुरुषे वा किं पठन्ति इति
क्रियापदं प्रथमपुरुष बहुवचनम् अस्ति
हा यतोहि कर्तृपदं तत्र अहम् आवां वयं नास्ति अपि त्वं युवां यूयमपि नास्ति अतः प्रथमपुरुषः एव अस्ति क्रियापद खलु अतः तत्र क्रियापदं प्रथमपुरुषे बहुवचने अस्ति समीचीनं हा इदानीं कर्मणि प्रयोगे किमस्ति
कर्मणि प्रयोगे कर्तृपदं सदा तृतीयाविभक्तौ भवति
कर्तृपदं सदा तृतीयविभक्त्यन्तं भवति समीचीनं हा
अतः अत्र कर्तृपदं तृतीयाविभक्तौ बहुवचनम् अस्ति
हा समीचीनम् अतः बालकैः इति अस्ति समीचीनम्
तदनन्तरं कर्मपदं सर्वदा प्रथमविभक्तौ भवति अतः पाठम् इति पाठः परिवर्तनमस्ति तदनन्तरं कर्मपद क्रियापदं सर्वदा कर्तृपद कर्मपदम् अनुसरति
समीचीनं हा
अतः पठन्ति इति पठ्यते भवति प्रथमपुरुष एकवचनम् अस्ति
हा यतोहि पाठः एकवचने
पाठः एकवचने अस्ति अतः पठ्यते अपि प्रथमपुरुष एकवचने भवति
हा उत्तममस्ति भगिनि हा अस्तु समीचीनम् अस्तु इदानीं शोभा भगिनि इदानीं तत्र हा समीचीनं भगिनि इदानीं तत्र नूतन अंशान् तत्र स्थापयामः तर्हि तत्र उत्तमः बालकः पाठान् पठति उत्तमः बालकः पाठान् पठति इदानीं तत्र कर्तृप्रयोगं दत्तं कर्तृप्रयोगः दत्तः कर्मणि प्रयोगः कः
आं महोदय तत्र उत्तमः बालकः पाठान् पठति इत्यस्मिन् बालकः इति कर्तृपदं पाठान् इति कर्मपदं पठति इति क्रियापदं तत्र कर्तारम् अनुसरति क्रियापदम् अतः एकवचने प्रथमपुरुषे अधुना बालके बालकः इति कर्तृपदम् अस्ति इति कृत्वा तस्य तृतीयविभक्तिः भवति बालकेन इति अपि च तस्य विशेषणम् अपि अस्ति उत्तमः इति अतः तस्य अपि तृतीयविभक्तिः भवितव्यम् अतः तत्र उत्तमेन बालकेन पाठान् इत्यस्य प्रथमविभक्ति पाठाः इति भवति पाठाः पठ्यन्ते इति भवति उत्तमेन बालकेन पाठाः पठ्यन्ते
पठ्यन्ते इति बहुवचने अस्ति किमर्थम्
तत्र कर्मणि प्रयोगे क्रियापदं कर्मपदम् अनुसृत्य भवति कर्मपदं प्रथमविभक्तौ भवति पाठाः
पूर्णवाक्यं पुनः एकवारम्
उत्तमेन बालकेन पाठाः पठ्यन्ते
उत्तमेन बालकेन पाठाः पठ्यन्ते समीचीनं हा अस्तु अस्तु अग्रे इदानीं तत्र नरेश् महोदय इदानीं तत्र उत्तमेन उत्तमः बालकः इति त्यजामः इदानीं बालकः उत्तमं पाठं पठति हा इदानीं तत्र बालकः
बालकः
उत्तमं पाठं पठति इति हा इदानीं तत्र तस्य कर्मणि प्रयोगः कः
अत्र कर्त्रे प्रयोगे बालकः एकवचने अस्ति प्रथमविभक्ति तत्र कर्मणि प्रयोगे तस्य तृतीयविभक्ति भवति बालकेन कर्मपदं किमस्ति पाठम्
उत्तमं पाठम्
उत्तमं पाठम् उत्तमं पाठं कर्मपदम् अस्ति कर्मणि प्रयोगे अत्र तु उत्तमं पाठं द्वितीयविभक्तिः अस्ति कर्मणि प्रयोगे
साक्षात् कर्मपदं पाठमेव खलु
पाठम् आं पाठम् अस्ति उत्तमं तस्य विशेषणम् अस्ति
इति समीचीनं
प्रथमविभक्ति पाठः भवति अपि च विशेषणम् अपि तस्य अनुसरति उत्तमं तत्तु नपुंसकलिङ्गे अस्ति उत्तमः पाठः
पाठः एव विशेषणस्य लिङ्गं भवति खलु
आमाम् उत्तमः पाठः कर्मपदं भवति कर्मणि प्रयोगे अपि च क्रियापदं कर्मपदम् अनुसरति अतः पठ्यते भवति बालकेन उत्तमः पाठः पठ्यते
समीचीनम् अस्तु इदानीं समीचीनं महोदय इदानीं तत्र बहुवचने आसीत् चेत् तत्र कर्तृप्रयोगे रूपं किं कर्मणि प्रयोगे रूपं किं तत्र बालकः इति बालकाः इति अस्ति चेत् कर्तृप्रयोगे रूपं किं भवति
बालकाः उत्तमं पाठं पठन्ति
हा इदानीं कर्मणि प्रयोगे
कर्मणि प्रयोगे अत्र बालकाः तस्य तृतीयविभक्ति बालकैः कर्मपदम् उत्तमः पाठः पठ्यते बालकैः उत्तमः पाठः पठ्यते
हा इति अस्ति अस्तु समीचीनं हा अस्तु इदानीं एतावत् लट् लकारः इदानीं तत्र लोट् लकारः चिन्त्य लोट् लकारस्य चिन्तनं कुर्मः तर्हि अस्तु वेदा भगिनी इदानीं तत्र बालकः पाठं पठतु इति
बालकः पाठं पठतु
तत्र लकारः कः
पठतु लोट्लकारे अस्ति प्रथमपुरुषे एकवचनं लोट्लकारे बालकः तस्य परिवर्तनं भवति बालकः बालकेन स्थाने पाठः प्रथमा विभक्ति भवति तस्य एकवचने प्रथमा विभक्ति बाल पाठः पठति तस्य स्थानं तस्य रूपं भवति कर्मफल कर्मम् आश्रित्य आश्रित्य तस्य पठ्यते बालकेन पाठः पठ्यताम्
किमर्थं पठ्यताम्
किमर्थं चेत् लोट्लकारे ताम् आयाति न महोदय प्रत्यय तां प्रत्यय
किमर्थं ताम् इति भवति किमर्थं पठ्यतु इति नास्ति
न पठ्यतु तु कर्तृप्रयोगे भवति
न न पठतु पठतु इति कर्तृप्रयोगे
कर्मणि प्रयोगे कर्मणि प्रयोगे आत्मनेपदे रूपम् एव भवति
समीचीनं तत्र यद्यपि पठ् इति धातुः परस्मैपदी धातुः अस्ति किन्तु पठ्य इति यदि तत्र कर्मणि रूपं भवति आत्मनेपदी धातु इव रूपं तस्य रूपं भवति अतः पठ्यते तत्र वर्तते वर्ततां शोभते शोभताम् इति वयं जानीमः अतः तत्र पठ्यते इति स्थाने पठ्यताम् इति आगच्छति समीचीनम् अतः पूर्णवाक्यं पुनः बालकेन
पाठः पठ्यताम्
हा तत्र बालकः पाठं पठतु इति तत्र आदेशः अथवा तत्र किं कृपया इति किमपि आदेशः एव भवेत् इति चिन्तयामः बालकः पाठं पठतु इति स्थाने बालकेन पाठः पठ्यताम् इति किञ्चित् तत्र यदा वदामः तत्र आदेशस्य टोन् इति भवेत् खलु वाक्ये अतः बालकः पाठं पठतु बालकेन पाठः पठ्यताम् इति भवति समीचीनं भगिनि हा अस्तु इदानीं सुजाता भगिनी हा या तत्र सर्वे वदन्ति तदनन्तरं वयं पुनः एकवारम् एतादृशम् अभ्यासं कुर्मः यत्र भवतः वाक्यमेव भवति एतावत् अहं वाक्यं दत्तवान् पुनः यदि एतत् कुर्मः तत्र निमिषद्वये हा तस्मिन् समये सर्वे तत्र एकमेकं वाक्यं चित्वा लोट्लकारे तत्र कर्तृप्रयोगः कः कर्मणि प्रयोगः कः इति वदन्तु तत्र वेदा भगिनी भवती एव तत्र आरम्भं करोति किन्तु तत्र प्रथमतया सुजाता भगिनी वदति ललिता भगिनी शोभा भगिनी नरेश महोदय तदनन्तरं भवती वदति तस्मिन् समये अस्तु निमिषद्वयम् अस्ति अस्तु इदानीं सुजाता भगिनी तत्र बालकः पाठं पठतु इदानीं तत्र बालकाः अस्ति चेत् तत्र लोट्लकरे रूपं कर्तृरूपं किं भवति
बालकैः
न न न कर्तृप्रयोगमेव लोट्लकरे बालकः पाठं पठतु बालकाः
बालकः पाठं
बालकाः
पाठं पठन्तु
हा तत्र किञ्चित् टोन् भवेत् बालकाः पाठं पठन्तु इति आदेश पठन्तु इति लोट्लकारः अस्तु इदानीं तत्र तस्य कर्मणि प्रयोगः
बालकैः पाठः पठ्यन्ताम्
किमर्थं पठ्यन्ताम् पठन्तु इति आसीत् सत्यं
पठन्तु आसीत् इत्यनेन लोट्लकार बहुवचनमस्ति पठ्यन्तु
लोट्लकारस्य तत्र बहुवचनरूपं तत्र पठ्यन्तां समीचीनं तत्र इति समीचीनं किन्तु तत्र एतत् समीचीनं वा रूपं तत्र कर्मणि प्रयोगे
कर्मणि प्रयोगे न भवति पठ्यन्तां पठ्यते एव भवति
पठ्यते अथवा पठ्यतां लोट्लकारः
पठ्यतां भवति महोदय
पुनः वाक्यं वदतु कर्मणि प्रयोगे
बालकैः पाठः पठ्यताम्
हा बालकैः पाठः पठ्यताम् हा यतोहि किमर्थं पठ्यतां समीचीनमस्ति न तु पठ्यन्तम्
पाठः प्रथमाविभक्ति एकवचनमस्ति इच्छनेन प्रथमपुरुष एकवचनं क्रियापदं भवति
समीचीनं हा अस्तु इदानीम् अग्रे तत्र ललिताकुमारी भगिनी इदानीं तत्र बालकाः पाठान् हा बालकाः पाठान् किं भवति लोट्लकरे पठन्तु
पठन्तु
बालकाः पाठान् पठन्तु इति अस्ति इदानीं तत्र कर्मणि प्रयोगः कः
बालकैः पाठाः पठ्यन्ताम्
हा पठ्यन्ताम् किमर्थं पठ्यन्तं समीचीनमस्ति तत्र
पाठाः इति कर्मपदं बहुवचने अस्ति अतः कर्मपदम् अनुसृत्य क्रियापदं प्रथमपुरुष बहुवचनं भवति
हा समीचीनं समीचीनम् अतः बालकैः
बालकैः पाठाः पठ्यन्ताम्
इति रूपं भवति समीचीनम् अस्तु धन्यवादः अस्तु अग्रे शोभगिनि इदानीं बालकः पाठान् पठतु बालकः पाठान् पठतु इति अस्ति इदानीं तत्र कर्मणि रूपं किं भवति
अस्तु बालकः पाठान् पठतु अतः तत्र बालकः इति तृतीया भवति बालकेन अपि च पाठान् इति कर्मपदं प्रथमविभक्तो भवति पाठाः अपि च अधुना लोट्लकारः अतः आत्मनेपदी रूपाणि पठ्य पाठाः इति अस्ति इति कृत्वा पठ्यन्ताम् इति भवति बालकेन पाठाः पठ्यन्ताम्
बालकेन पाठाः पठ्यन्ताम् अस्तु इदानीं तत्र उत्तमः बालकः पाठान् पठतु इति अस्ति चेत्
उत्तमेन बालकेन पाठाः पुनः अतः पठ्यन्तामेव भवति तत्र उत्तमेन बालकेन पाठाः पठ्यन्ताम्
हा उत्तमेन बालकेन पाठाः पठ्यन्ताम् समीचीनम् अस्तु इदानीं नरेश महोदय तत्र बालकाः उत्तमान् पाठान् पठन्तु इति वाक्यं तत्र कर्मणि प्रयोगे रूपं किं भवति
बालकाः उत्तमान् पाठान् पठन्तु बालकैः उत्तमाः पाठाः पठ्यन्ताम्
इति भवति हा तत्र किमर्थम् उत्तमाः पाठाः इति आगतं तत्र
उत्तमं पाठान् तत् कर्मपदं बहुवचने अस्ति कर्मणि प्रयोगे प्रथमविभक्ति बहुवचनं भवति पाठाः विशेषणम् उत्तमाः
हा पाठाः इति पदस्य विशेषणम् उत्तमाः समीचीनं हा अस्तु अस्तु तर्हि इदानीं तत्र वेदा भगिनी भवत्याः वाक्यं कर्तरिप्रयोगे तदनन्तरं कर्मणि प्रयोगे लोट्लकारे
लोट्लकारे जनाः जनाः चित्रं पश्यन्तु इति वाक्यं समीचीनं वा
भवती वदतु
जनाः चित्रं पश्यन्तु इति वाक्यं कर्तरिप्रयोगे अस्ति जनाः बहुवचने अस्ति तदेव क्रियापदं पश्यन्तु इति लोट्लकारे तस्य बहुवचन एक प्रथम पुरुषे एक बहुवचने पश्यन्तु इति रूपमायाति चित्रं पश्यन्तु तत्र जनाः इति बहुवचने अस्ति, तदेव तस्य तृतीयाविभक्तौ रूपमस्ति जनैः. जनैः चित्रं चित्रं नपुंसकलिङ्गे एव अस्ति इति अहं मन्ये. चित्रं प्रथमाविभक्ति तस्य रूपं चित्रमेव भवति. चित्रं अपि च चित्रम् अनुसृत्य क्रियापदमस्ति. प्रथम एकवचने प्रथमपुरुषे एकवचने तस्य रूपं लोट्लकारे तस्य रूपं भवति पश्य दृश्यताम् जनैः चित्रं दृश्यताम् इति.
हा जनैः चित्रं दृश्यताम् उत्तमं. हा अस्तु समीचीनम्. अस्तु धन्यवादाः. अस्तु अग्रे सुजाता भगिनी भवत्याः वाक्यम्.
बालकाः पाठशालां गच्छन्तु.
बालकाः पाठशालां गच्छन्तु.
बालकाः बहुवचनम् अस्ति. बालकैः पाठशालाः
पाठशाला इति स्त्रीलिङ्गे अस्ति भगिनि.
पाठशाला स्त्रीलिङ्गे. पाठशाला एव भवति.
न न द्वितीयविभक्तौ तत्र रूपं किं भवति पाठशाला इति.
पाठशालां
इति आगच्छति सत्यं. अतः पाठशाला इदानीं बालकैः पाठशाला
गच्छन्तु.
न न गच्छन्तु इति तु लोट्लकारे
गम्यतां भवति.
गम्यन्तां वा अथवा अन्यत् रूपं.
बालकैः एकवचने अस्ति शालां इच्छनेन
शाला
एकवचने अस्ति इच्छनेन गम्यतां भवति.
अतः पूर्णवाक्यं पुनः.
बालकैः पाठशाला गम्यताम्.
गम्यताम् हा उत्तमं. बालकैः पाठशाला गम्यताम् समीचीनम्. अस्तु तत्र यदि उत्तमाः बालकाः अस्ति चेत् तत्र किं भवति.
उत्तमेन बालकाः उत्तमैः बालकैः
बालकैः
पाठशाला
गम्यताम्. इदानीं तत्र बालिकाः आसीत् चेत् तत्र किं भवति. बालिकाः पाठशालां गच्छन्तु इति अस्ति चेत् तत्र किं भवति. बालिकाः इति अस्ति बहुवचने.
बालिकाभिः
पाठशाला
गम्यताम्.
गम्यताम् इति भवति. समीचीनं भगिनि. हा उत्तमम् अस्ति. धन्यवादः. अस्तु अलिता भगिनी अग्रे.
भक्तः देवं स्मरतु.
हा भक्तः देवं स्मरतु समीचीनम्.
अत्र भक्तः इति कर्तृपदं, देवम् इति कर्मपदं, स्मरतु लोट्लकारः प्रथमा एकवचनमस्ति.
प्रथमपुरुषे एकवचनरूपं समीचीनं.
प्रथमपुरुषे एकवचनमस्ति. तत्र परिवर्तनं भक्तेन देवः स्मर्यताम्.
स्मर्यताम् हा भक्तेन देवः स्मर्यताम् समीचीनम्. स्मर्यताम्
कर्तृपदं तृतीयाविभक्तौ भवति. कर्मपदं देवम् इति प्रथमाविभक्तौ भवति. अतः देवः स्मरतु लोट्लकारं लोट्लकारः स्मर्यताम् इति भवति. प्रथमपुरुष एकवचनं कर्तरिप्रयोगे.
हा प्रथमपुरुषे एकवचनं समीचीनं भगिनि. हा अस्तु उत्तमं. धन्यवादाः सुशोभा भगिनी.
आं महोदय, तत्र शिशवः क्षीरं पिबन्ति.
शिशवः क्षीरं पिबन्तु,
क्षमतां, शिशवः क्षीरं लोट्लकारे किल,
लोट्लकारे,
शिशवः क्षीरं पिबन्तु. तत्र शिशवः इति कर्तृपदं, क्षीरम् इति तत्र नपुंसकलिङ्गम् इति मन्ये, अतः क्षीरं कर्मपदं, द्वितीयापि प्रथमापि तदेव. पिबन्तु इति तत्र क्रियापदं कर्तारम् अनुसरति. अधुना लोट् लकारे कर्मणि प्रयोगे शिशवः इति बहुवचने शिशुभिः क्षीरं, क्षीरमेव पीयन्ताम्, क्षमतां, क्षीरं पीयताम्,
पीयताम्,
पीयताम्, क्षीरम् इति कर्मपदम् अनुसृत्य पीयताम् इति एकवचने भवति.
समीचीनं, शिशुभिः क्षीरं पीयताम्, पीयताम्, समीचीनं. वंशीसुधा भगिनी नमस्कारः. पुटसङ्ख्या, पुटसङ्ख्या अस्ति तत्र लोट् लकार, तत्र किं 134 इति मन्ये, 134 135 किन्तु तदनन्तरं तत् कृतवन्तः इति मन्ये, अथवा किञ्चित् एव करणीयमस्ति इति मन्ये भगिनी. किन्तु कर्मणि भावप्रयोगः लोट् लकारः इति विषयः. अस्तु, नरेश् महोदय भवतः वाक्यं.
कर्तृप्रयोगे त्वं चाकलेहं मा खादतु.
अस्तु, इदानीं मा इति आगच्छति. अस्तु, त्वं चाकलेहं मा तत्र खादतु इति अस्ति, त्वम् अस्ति,
खाद,
त्वं चाकलेहः मा खाद. समीचीनं,
कर्मणि प्रयोगे त्वं, त्वया, त्वया चाकलेहः, चाकलेहः खाद्यताम्,
खाद्यताम्, त्वया चाकलेहः मा खाद्य,
मा खाद्यताम्.
समीचीनमस्ति महोदय. तत्र त्वम् इति स्थाने तत्र यूयम् अस्ति चेत् किं भवति?
यूयम् अस्ति चेत् तत्र बहुवचने अस्ति, युष्माभिः, युष्माभिः चाकलेहः मा खाद्यताम्,
खाद्यताम्. कर्तृप्रयोगे रूपं किं भवति?
यूयं चाकलेहं मा खादत,
खादत, अस्तु, खादत. समीचीनं महोदय. तत्र बहुवारं पूर्वम् एतत् लोट्लकारं वयं कृतवन्तः खलु, तत्र मध्यमपुरुषे. तत्र बहुवारम् एतद् आगच्छति, तत्र पुस्तके अपि तत्र लिखथ, पठथ इति लोट्लकरे रूपं दत्तमस्ति तत्र अभ्यासे पुस्तके अपि.
परन्तु अत्र तु खादत अस्ति, न तु खादथ, खादथ,
खादथ इति एव. सत्यं, सत्यं, धन्यवादः महोदय. महाप्राणः नास्ति, अल्पप्राणः एव. सत्यं, सत्यम्,
अल्पप्राणः,
अल्पप्राणः. यथा तत्र पुटसङ्ख्या 136 उपरि तत्र उच्चैः पठथ इति अस्ति, तत्र उच्चैः पठथ इति तत्र अस्ति खलु, 136 वाक्यं,
पठत,
लकारः कः, लकारः कः, पठत,
पठत, लोट् लकार मध्यमपुरुषे बहुवचनं,
मध्यमपुरुषे, अतः तत्र यूयं पठत,
यूयं पठत, यूयं खादत,
तैः पठत इति इति आदेशः अस्ति तत्र. समीचीनं महोदय, धन्यवादः. सत्यं, तत्र महाप्राणः अल्पप्राणः एव अस्ति. अस्तु, तर्हि इदानीं तत्र एतावत् तत्र पुनस्मरणं जातम् इति मन्ये, तत्र लोट् लकारस्य अपि कर्मणि प्रयोगस्य. इदानीं तत्र 135 पुटसङ्ख्ये तत्र किमपि पठनीयम् अस्ति वा, अथवा सर्वं कृतवन्तः वा वयं?
सर्वं कृतवन्तः इति मन्ये महोदय.
अस्तु,
135 तु कृतवन्तः.
अस्तु तत्र अग्रे सरामः तर्हि. अस्तु अग्रे तत्र वेदा भगिनी अग्रिमपुटं 36 आरम्भं करोति वा तत्र.
एतानि वाक्यानि सावधानतया उच्चैः पठत. कर्तरिप्रयोगः अपि च कर्मणि स्तम्भं द्वयमस्ति. भवान् हृदयदौर्बल्यं त्यजतु. हृदयदौर्बल्यं त्यजतु भवान् कर्तरिप्रयोगे. तत्र भवान् अस्ति प्रथमपुरुष एकवचनं. हृदयदौर्बल्यं कर्मपदमस्ति. त्यजतु इति लोटकारे आयाति त्यजतु. तस्य कर्मणि प्रयोगरूपं भवति भवता तृतीयाविभक्ति. भवान् इत्यस्य तृतीयाविभक्ति भवता. हृदयदौर्बल्यं नपुंसकलिङ्गपदमस्ति चेत् प्रथम एकवचनम् अपि हृदयदौर्बल्यम् एव भवति. त्यज्यताम् इति तस्य लोट्लकारस्य रूपम् अस्ति प्रथमपुरुषे एकवचने. त्यज्यतां कर्मपदम् आश्रित्य त्यज्यताम् इति क्रियापदमस्ति.
अस्तु तत्र त्वम् इति आसीत् चेत् कर्तृपदं
चमूं पश्य.
न न न प्रथमवाक्ये
त्वम्
अस्ति चेत् तत्र किं परिवर्तनं भवति?
त्वं हृदयदौर्बल्यं त्वं हृदय दौर्बल्यं त्यजानि इति. न त्वं न त्वं त्वम् इत्युक्ते त्वं हृदयदौर्बल्यं त्यज.
त्यज समीचीनं. कर्मणि प्रयोगे
कर्मणि त्वया हृदयदौर्बल्यं त्वया हृदयदौर्बल्यं हृदयदौर्बल्यं तस्य प्रथमा विभक्ति. तत् तत्र त्यज्यतामेव अस्ति.
समीचीनं समीचीनम्. अस्तु अग्रे सुजाता भगिनी अग्रे.
त्वं चमूं पश्य. त्वं मध्यमपुरुषे एकवचनमस्ति. चमूं कर्मपदमस्ति. पश्य क्रियापदम्. त्वं त्वया चमूं पश्य दृश्यतां भवति.
दृश्यताम् इति
अस्ति.
अस्तु इदानीं तत्र भवान् इति अस्ति चेत् किं भवति?
भवता
कर्तृप्रयोगः तदपि
भवान् चमूं पश्य. नो न पश्य पश्यतु
पश्यतु. हा भवान् चमूं पश्यतु
पश्यतु. भवता चमूं चमूं पश्यतां दृश्यतां
दृश्यतां. न न चिन्ता मास्तु. इदानीं तत्र अहम् अस्ति चेत् तत्र किं भवति? अहं
त्वया त्वया
अहम् अस्ति चेत् तत्र त्वं स्थाने अहम् इति स्थापयतु.
अहं चमूं चमूं दृश्ये दृश्ये भवति.
अहं चमूं तत्र न न पश्यतु पश्य तत्र पठतु इति क्रियापदं स्वीकरोतु. पठतु अथवा पश्यतु एव.
पश्यतु पश्य पश्यन्तां पश्येतां पश्यन्तां
पश्येताम् इति न भवति. पश्यति इति अस्ति खलु परस्मै. पठति पठति इति वदतु. पठतु
पठतु पठतां पठन्तु पठतं
पठत
पठत पठानि पठाम
इति अस्ति. अतः तत्र पश् पठत् पठ् धातुः पठानि. पश्य इति स्थाने
पश्य
न दृश्यति पश्य इति भवति.
पश्यानि
पश्यानि. अहं चमूं पश्यामि. इदानीं कर्मणि प्रयोगे मया
मया चमूं पश्यतां
दृश्यतां
क्षम्यतां महोदय, पश्यतां दृश्यताम् इत्यस्य
तत्र पश्य तत्र दृश्य इति भवति खलु, अतः
आं महोदय दृश्यताम्,
अतः अहं चमूः यानि मया चमूः दृश्यताम्। साधारणतया तत्र मया अस्ति चेत् प्रायशः प्रश्नः भवति मया चमूं पश्यानि वा इति, तत्र अहं चमूं पश्यानि वा इति भवति, तत् कर्म मया चमूः दृश्यतां वा इति समीचीनं भगिनि। वनिताकुमारी भगिनी अग्रे।
आं महोदय, भक्ताः देवम् एव शरणं गच्छन्तु, कर्मणि प्रयोगे भक्तैः देवः एव शरणं गम्यताम्। अत्र भक्तैः देवः एव शरणं गम्यताम्, अत्र भक्तैः कर्मपदं तृतीयविभक्तौ बहुवचने अस्ति, देवः इति कर्मपदं प्रथमविभक्तौ अस्ति, गम्यताम् अपि न, देवः कर्मपदं नास्ति, शरणं कर्मपदमस्ति,
न न देवमेव कर्मपदमस्ति भगिनि, देवमेव देवम् इति एव, तत्र शरणमिति तत्र प्रायशः क्रियाविशेषणम् अस्ति, अतः तत्र तद् भिन्नम् अस्ति, कर्मपदं नास्ति।
आम् गम्यताम् इति प्रथमपुरुष लोट्लकारः एकवचने अस्ति, कर्मपदम् अनुसरति, देवः इति एकवचने अस्ति, अतः गम्यताम् अपि एकवचने भवति।
समीचीनं भगिनि। इदानीं तत्र भक्ताः इति स्थाने त्वम् इति स्थापयतु, कर्तृपदं त्वं देवमेव,
त्वं देवमेव शरणं गच्छन्तु,
त्वम् इति अस्ति इदानीं,
त्वं गच्छ,
पूर्णवाक्यं
देवमेव शरणं गच्छ
इति। इदानीं तस्य कर्मणि प्रयोगः,
तस्य कर्मणि प्रयोगे त्वया देवमेव देवः एव, त्वया देवः एव शरणं गम्यताम्,
गम्यताम् एव भवति। समीचीनं भगिनि, अस्तु उत्तमम्, अस्तु शोभा भगिनी अग्रे।
सर्वे सततं कर्म समाचरन्तु, सर्वे इति कर्तृपदं बहुवचने, सततं कर्म इति कर्मपदं, समाचरन्तु इति क्रियापदं कर्तारम् अनुसृत्य बहुवचने भवति प्रथमपुरुषे। कर्मणि प्रयोगे कर्तृपदस्य तृतीयविभक्तिः सर्वैः, अपि च सततं तिष्ठति, सततं कर्म, कर्म एव प्रथमा द्वितीयाविभक्तौ, कर्म अपि च सर्वैः, कर्म इति एकवचने अतः समाचर्यताम् इति भवति, समाचरन्तु इत्यस्य समाचर्यताम्
आम्। अस्तु, इदानीं तत्र कर्म इति स्थाने कर्मपदम् इदानीं तत्र एकवचने अस्ति, बहुवचनं रूपं वदतु तत्र, सर्वे तर्हि सर्वे,
सर्वे सततं कर्मकर्मणि कर्माणि समाचरन्तु,
सर्वे सततं कर्माणि
कर्माणि समाचरन्तु, अधुना सर्वैः सततं तत्र प्रथमविभक्तौ कर्म कर्मणि एव भवति, सर्वैः सततं कर्मणि
कर्माणि
क्षम्यतां कर्माणि समाचर्यन्ताम्,
समाचर्यन्ताम्, समीचीनं, समाचर्यन्ताम् इति रूपं भवति। समीचीनं भगिनि, अस्तु अग्रे वंशीसुता भगिनी अग्रे क कर्तुं शक्नोति वा अथवा केवलं शृणोति वा भगिनि?
आम् कर्तुं शक्नोमि महोदय.
अस्तु भगिनि, अस्तु अग्रिमवाक्यं.
षष्ठमं किल महोदय?
पञ्चम.
अस्तु. त्वं परमं वचः शृणु, तत्र प्रयोगः अस्ति कर्मणि प्रयोग. त्वया परमं वचः श्रूयताम्, तत्र त्वया इति तृतीया विभक्त्याम् अस्ति. परमं वचः, वचः इति कर्मपदमस्ति. त्वं परमं वचः कर्मपदमस्ति. श्रूयताम् इति लोट्लकार एकवचनमस्ति.
अस्तु, तर्हि तत्र किमर्थं वचम् इति नास्ति, परमं वचम् इति नास्ति, परमं वचः
इति द्वितीयविभक्ति.
वचः वचस् इति
वचः रूपं किमस्ति? वचः वचः वचसि वचांसि वा
हा इति सकारान्तपदं. मनः मनसि,
मनः मनः इति रूपं, तत्र वचः वचसि वचांसि इति. अत्र द्वितीया विभक्त्यामपि वचः एव अस्ति कर्मपदं. प्रथमवाक्ये तु कर्तृप्रयोगे तु द्वितीया विभक्त्यामस्ति, कर्मणि प्रयोगे तु तत्र प्रथमाविभक्त्यामस्ति, अतः रूपपरिवर्तनं नास्ति तत्र.
नपुंसकलिङ्गपदम्. इदानीं तत्र वचः इति स्थाने वचांसि अस्ति चेत् तत्र कर्तृप्रयोगे रूपं किं भवति? त्वं,
त्वं परमं वचांसि शृण्वन्तु. न न, त्वम् इति अस्ति न, वचांसि शृणु इत्येव भवति.
शृणु एव भवति. तत्र परमम् इति तत्र किम् अस्ति? परमं वचः इति, परमं वचः,
परमं वचः, तत्र विशेषणविशेषभावः अस्ति महोदय.
अतः वचांसि भवति चेत् तत्र
अस्तु, परमं परमं परा परमं वचां न, परमं नास्ति तत्र. हा ओ अस्तु, परमाणि वचांसि भवति वा तत्र? परमम् इति
एतादृशप्रयोगः कदापि तत्र वयं न पश्यामः, न शृण्मः, अतः तत्र किञ्चित् विचित्रम् इति भासते कथावत् एव, किन्तु केवलम् अभ्यासार्थं. तत्र परमं वचः
परमाणि वचांसि
इदानीम् कर्मणि प्रयोगे त्वया
त्वया वचांसि इति उक्तवती, तत्र त्वया परमाणि वचांसि शृण्वन्तु इति भवति. श्रूयतां, श्रूयन्तां,
श्रूयताम् इति एकवचने अस्ति, किन्तु किम् अपेक्षितमस्ति?
श्रूयतां, श्रूयतां, श्रूयन्तां अस्ति तत्र. श्रूयतां, श्रूयन्तां तृतीय बहुवचनं किमस्ति महोदय?
तत्र वर्त, तत्र
श्रूयेतां, श्रूयन्तां,
कम्पतां,
श्रूयतां, श्रूयतां, श्रूयन्तां भवति महोदय. त्वया परमा परमाणि वचांसि श्रूयन्तां,
श्रूयन्तां, समीचीनं, श्रूयन्ताम् इति भवति. समीचीनम्. अस्तु, धन्यवादः. अग्रे नरेश् महोदय.
भवन्तः भीष्मम् एव अभिरक्षन्तु. अत्र भवन्तः बहुवचने अस्ति, तस्य तृतीया विभक्ति भवद्भिः. भवद्भिः भीष्मं द्वितीयविभक्ति, तस्य प्रथमविभक्ति भीष्मः. भीष्मः एव अभिरक्षन्तु, तत्र तु अत भीष्मः एकवचने अस्ति, अभिरक्ष्यतां भवद्भिः भीष्मः एव अभिरक्ष्यताम्
इति अस्ति. समीचीनम्. भवन्तः भीष्मम् एव अभिरक्षन्तु, भवद्भिः भीष्मः एव अभिरक्षताम्. इदानीं तत्र त्वम् इति स्थापयतु.
त्वं भीष्मम् एव अभिरक्ष, अस्ति कर्मणि प्रयोगे त्वया त्वया भीष्मः एव अभिरक्ष्यताम्
त्वया भीष्मः एव अभिरक्ष्यताम् इति समीचीनम् अस्तु अग्रे वेदा भगिनी
हा महोदय कोऽपि विषयान् न ध्यायतु कोऽपि विषयान् न ध्यायतु कः अपि विषयान् न दातु प्रथम कर्ता अस्ति प्रथम पुरुषे एकवचनं तदेव ध्यायतु इति लोट्लकारस्य कर्तरिप्रयोगे रूपमस्ति तस्य केनापि तृतीया विभक्ति तस्य भवति केन केनापि विषयान् तस्य प्रथमविभक्ति प्रथमपुरुषे एकवचनं न बहुवचनमस्ति विषयाः तत्र न ध्यायन्तां विषयाः बहुवचने अस्ति तदेव ध्यायतु तस्य रूपं भवति कर्म कर्मम् आश्रित्य तस्य रूपं बहुवचने प्रथमपुरुषे बहुवचने ध्यायन्ताम् इति रूपम् आयाति तस्य रूपं
तत्र कर्तृपदस्य बहुवचनरूपं वदतु कर्तृप्रयोगे
कर्तृपदस्य बहुवचनरूपं कोऽपि कः केऽपि विषयान् न ध्यायतु ध्यायन्तु
ध्यायन्तु समीचीनं केऽपि विषयान् न ध्यायन्तु
तस्य तृतीया विभक्ति केऽपि तस्य तृतीया विभक्ति भवति किं भवति तस्य तैः कैः कैः विषयाः न ध्यायन्त
कैः अपि विषयाः
न ध्यायन्त
ध्यायन्त समीचीनं भगिनि तत्र वाक्यस्य अर्थः अवगम्यते वा
आम् कोऽपि विषयान् न ध्यायतु
अस्तु समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रिमवाक्यं
यूयं फलेच्छां विना कार्याणि कुरुता यूयं कर्तृपदमस्ति यूयम् इत्यस्य तृतीया विभक्ति भवति युष्माभिः फलेच्छां
किमस्ति क्रियापदं किमस्ति अस्मिन् वाक्ये
कर्म कुरुता कुरुता
अस्ति क्रियापदस्य कर्मपदमस्ति वा
कार्याणि
कार्याणि इति कर्मपदमस्ति
कर्मपदम्
अस्तु
फलेच्छां विना कार्याणि कुरुता युष्माभिः फलेच्छां विना कार्याणि क्रियन्तां भवति कार्याणि इति बहुवचनमस्ति इत्यनेन क्रियन्तां भवति लोट्लकार बहुवचनम्
इदानीं तत्र फलेच्छां विना इति अस्ति तत्र किमर्थं परिवर्तनं न जातम्
विशेषणमस्ति
विना इति पदं तत्र कीदृशपदम् अस्ति तत्र विना इति विशेषपदमस्ति भगिनि
उपपदविभक्ति अस्ति इत्यनेन फलेच्छां विना
समीचीनं फलेच्छाम् इति विद्याविभक्तौ अस्ति यतोहि विना इति पदम् अस्ति विना इति पदं विना इति पदम् अव्ययम् अस्ति खलु तस्य वाक्ये विना अस्ति चेत् तस्मात् पूर्वपदं द्वितीयविभक्तौ भवेत् खलु फलेच्छा अथवा तृतीया अपि भवितुमर्हति किन्तु तत्र उपपदविभक्ति अतः तत्र तस्य परिवर्तनं द्वितीयविभक्तौ अस्ति किन्तु कर्मपदं नास्ति अतः तस्य परिवर्तनं न भवति फलेच्छां विना अथवा फलेच्छ तत्र तृतीयविभक्तिरूपमपि भवित् कर्तुं शक्नुमः तत्र फलेच्छां विना स्थाने फलेच्छा इति तस्य तृतीयविभक्तिरूपं किमस्ति
फलेच्छया
फलेच्छया विना कार्याणि फलेच्छया विना कार्याणि क्रियन्ताम् इति वक्तुं शक्नुमः समीचीनम् तत्र विना अस्ति चेत् तत्र किं द्वितीया तृतीया अपि
भवितुमर्हति
अपि अन्य अन्या विभक्तिः अपि भवितुमर्हति इति मन्ये
पञ्चमी
न जानामि
पञ्चमी पञ्चमी विभक्ति अपि भवितुम् अर्हति अतः तत्र यूयं फलेच्छयाः विना कार्याणि कुरुत युष्माभिः फलेच्छयाः विना
कार्याणि क्रियन्ताम्
भवत्याः फले फलेच्छयाः इति उक्तवान् तत्र फलेच्छा फलेच्छायाः लतायाः फलेच्छायाः विना कार्याणि कुरुत युष्माभिः फलेच्छायाः विना कार्याणि इति समीचीनम् अस्तु अग्रे ललिता भगिनी अग्रे
आं महोदय सर्वे स्वधर्मम् अनुतिष्ठन्तु सर्वैः स्वधर्मः अनुष्ठीयताम् अत्र सर्वैः तृतीयाविभक्तौ भवति बहुवचनं कर्तृ कर्तृपदं भवति अस्ति स्वधर्मः इति कर्मपदमस्ति अतः कर्तरिप्रयोगे स्वधर्मं द्वितीयाविभक्तौ भवति कर्तरिप्रयोगे क्रियापदं कर्तृपदम् अनुसृत्य अनुतिष्ठन्तु सर्वैः इति बहुवचनम् अतः अनुतिष्ठन्तु बहुवचनं भवति
समीचीनं भगिनी
कर्मणि प्रयोगे सर्वैः इति तृतीयविभक्ति बहुवचनमस्ति कर्मपदं प्रथमाविभक्तौ अस्ति स्वधर्मः एक प्रथम एकवचनम् अस्ति एकवचनं प्रथमाविभक्तिः अस्ति अतः क्रियापदम् अपि कर्मपदम् अनुसृत्य लोट्लकारे प्रथमपुरुष एकवचनं भवति अतः अनुष्ठीयताम् अस्ति
इदानीं तत्र प्रश्नः समीचीनं सर्वं समीचीनं किमर्थं तत्र क्रियापदं कर्मणि प्रयोगे अनुष्ठीयताम् इति अस्ति प्रथमपुरुषे अस्ति किमर्थं मध्यमपुरुषे नास्ति
स्वधर्मः एकवचनम् अस्ति
स्वधर्मः एकवचनम् अस्ति सत्यं किन्तु अतः अनुष्ठीयताम् एकवचने अस्ति सत्यं किन्तु किमर्थम् अनुष्ठीयताम् इति प्रथमपुरुषरूपम् अस्ति मध्यमपुरुषरूपं किमर्थं नास्ति कदा कदा मध्यमपुरुषस्य रूपं भवति सर्वं अनुष्ठीयताम् इति प्रथमपुरुषरूपम् अस्ति एकवचने अस्ति समीचीनं किन्तु किमर्थं मध्यमपुरुषरूपं नास्ति यतोहि कर्मपदं कर्मपदस्य कर्मपदस्य पुरुषः कः
प्रथमपुरुषः एव
कर्मपदस्य मध्यमपुरुषरूपम् अस्ति चेत् तत्र त्वम् आसीत् अथवा अहम् इति कर्मपदम् आसीत् चेत् तदा एव तत्र क्रियापदस्य मध्यमपुरुषरूपम् अथवा उत्तमपुरुषरूपं भवति खलु
आम् आं महोदय
किन्तु स्वधर्मः स्वधर्मः त्वं नास्ति अहं नास्ति खलु अतः
आम् प्रथमपुरुष एव अस्ति
प्रथमपुरुष एव अस्ति केवलं तत्र त्वं युवां यूयम् अहम् आवां भयं कर्मपदरूपेण भवति चेदेव तत्र क्रियापदस्य मध्यमपुरुषरूपं वा उत्तमपुरुषरूपं
वा भवति परिवर्तनं भवति
किन्तु स्वधर्मः इति तादृशं पुस्तकं ग्रन्थः विद्यालयम् एतत् सर्वमस्ति चेत् तत्र प्रथमपुरुषरूपमेव सर्वदा भवति अतः समीचीनं भगिनि अस्तु अग्रे
अनुष्ठीयतामपि प्रथमपुरुष एकवचने अस्ति
एकवचने अस्ति सत्यं भगिनि समीचीनम् उत्तमं अग्रे भगिनि
त्वं मम ऐश्वरं रूपं वीक्षस्व तत्र मध्यमपुरुषे कर्तरिप्रयोगः त्वम् इति कर्तृपदं
ह इति नास्ति वीक्षस्व इति अस्ति पूर्वं दृष्टवन्तः तत्र पठतु इति मध्यम पठतु इति पुरुषे किन्तु पठ इति मध्यमपुरुषे अत्र वीक्षस्व इति मध्यमपुरुषे खलु त्वम् इति अस्ति किमर्थं वीक्षस्व इति अस्ति, वीक्ष इति नास्ति?
तत्र लोट् लकार एव वीक्षस्व इति भवति तत्र,
किन्तु पठति इति तस्य लोट् लकारः पठ एव अस्ति खलु?
हा पठ 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 एव अस्ति, तत्र कर्मणि प्रयोगे वीक्ष तत्र वीक्षस्व इति
क्षमतापदी
अपि स्मरणेन आत्मनेपदी एव भवति महोदय, तत्र वर्षस्व इति भवति
अस्ति, अत्र आत्मनेपदी धातु वीक्षते, ईक्षते, बि उपसर्गः वीक्षते, अतः वीक्षस्व
इति भवति धातुः. आम् त्वं मम ऐश्वरं रूपं वीक्षस्व, तत्र त्वम् इत्यस्य अधुना तृतीया विभक्तौ त्वया इति भवति कर्तृपदं. मम ऐश्वरं तत्र रूपम् इति कर्मपदं, रूपम् इत्यस्य ऐश्वरम् इति विशेषणम्, अतः तत्र रूपम् इति तु नपुंसकलिङ्गे अस्ति इति कृत्वा रूपम् इति एव तिष्ठति. अपि च वीक्षस्व इत्यस्य अधुना तत्र प्रथमपुरुषे त्वया इति यदा भवति प्रथमपुरुषे एव भवति किं कर्म क्रियापदम्, अतः वीक्ष्यताम् इति त्वया मम ऐश्वरं रूपं वीक्ष्यताम् इति भवति.
वीक्ष्यताम्, हा समीचीनम्. अपि तत्र मम इति तस्य परिवर्तनं न जातं खलु?
आम्, तस्य तत्तु षष्ठीविभक्त्याम् अस्ति. अपि च मम ऐश्वरं रूपम् ऐश्वरं रूपम् इत्यस्य कृते तत्र किमपि परिवर्तनं न भवति, तत्र कर्तृपदं नास्ति, कर्मपदं नास्ति,
विशेषणमपि नास्ति, क्रियापदमपि
नास्ति, अतः तथा एव गच्छति,
अतः तत्र तस्य परिवर्तनं न भवति. उपपदविभक्ति अव्ययम् अपि तत्र षष्टिविभक्ति पञ्चमविभक्ति एतादृश सप्तमविभक्ति अस्ति चेत् तत्र परिवर्तनं न भवति, यतोहि कर्तृपदं नास्ति, कर्मपदं नास्ति, क्रियापदमपि नास्ति. इदानीं तत्र त्वम् इति स्थाने भवान् इति स्थापयतु अथवा भवति इति स्थापयतु. भवति मम ऐश्वरं
भवति मम ऐश्वरं रूपं तत्र वीक्षताम् इति भवति लोट् लकारे
ऐश्वरं रूपं वीक्षताम्. इदानीं कर्मणि प्रयोगे
तत् कर्मणि प्रयोगे भवति मम पुनः ऐश्वरं रूपं तत्र यकारः आगच्छति यक् प्रत्ययस्य, अतः वीक्ष्य इति अङ्गं वीक्ष्यताम् इति एव भवति तत्र.
समीचीनं, किन्तु भवति इति न भवति, भवति इति कर्म कर्तृपदं कर्तृपदस्य
भवति इत्यस्य भवत्या भवत्या मम ऐश्वरं रूपं वीक्ष्यताम्
वीक्ष्यताम् इति भवति. समीचीनं, हा अस्तु, उत्तममस्ति. अस्तु अग्रे वंशी सुधा भगिनी अग्रे.
महोदय एकः प्रश्नः अस्ति, द्विकर्मकधातु अस्ति चेत्
इदानीं विशिष्टः नास्ति इति वा भगिनि, एतत् सर्वं सरलमस्ति इति भवती पृच्छति वा?
न न न प्रश्नम् देवः तत्र न देवम् एव शरणं गच्छन्तु तत्र
द्विकर्मक नास्ति, द्विकर्मक नास्ति तत्र, शरणम् इति क्रियाविशेषणम् अस्ति भगिनि. हा शरणं, तत्र द्विकर्मक अस्ति चेत् तत्र नियमः अस्ति, नाम तत्र गौणकर्मपदम् अस्ति,
प्रधानकर्मपदम् अपि च गौणकर्मपदम्.
हा तत्र केचन क्रिया तत्र केचन धातवः सन्ति येषां कर्मणि प्रयोगे तत्र गौणकर्मपदस्य प्रथमाविभक्तिः भवति, अपि अन्येषां धातूनां तत्र प्रधान कर्मपदस्य प्रथमाविभक्तिरूपं भवति.
मम संशय वयं पठितवन्तः पूर्वम् एतद्विषये,
वयं तत्र गौणकर्मपदम् अपि प्रधानकर्मपदं पठितवन्तः, किन्तु तस्य कर्मणि रूपं प्रायशः न पठितवन्तः इति मन्ये प्रायशः तत् कुर्मः समीचीनं तत्र कस्य तत्र ओ तस्य नाम
वंशीसुधा भगिनी उक्तवान् भवान्
न तत्र न भगिनी तत्र कस्य करपत्रम् अस्ति तत्र
नीलेश महोदयस्य वा महोदय
न नीलेश महोदयस्य अपि सत्यं भगिनी अपि तत्र नीलेश महोदय तु तत्र किं कृतवान् तत्र विस्तररूपेण सः विवरणं कृतवान् किन्तु मूलकर्तृ तत्र मूलपाठः तु तत्र महाबलेश्वरभट्टः तस्य नाम किम् अस्ति
हेग्डे महोदयस्य वा तस्मिन् विषये महोदय तस्मिन् विषये
तत्र कारकः सः कारकः समासः सन्धिः इति पुस्तकानि लिखितवान् तत्र महाबलेश्वर
महाबलेश्वरभट्टः महोदय
महाबलेश्वरभट्टः तस्य पुस्तके एषः विषयः अस्ति अतः तत्र एकमेव पुटम् अस्ति यदि तत् पठामः समीचीनं भवति किन्तु तस्य विवरणं तत्र विस्तररूपेण तत्र नीलेश बोदास् महोदय अपि विस्तरेण विवरणं कृतवान् अस्ति किन्तु तत्र
कृतवन्तः वर्गे
कर्तृप्रयोगं वयं न पठितवन्तः इति मन्ये केवलं कर्तृप्रयोगस्य
करपत्रम् उपयुज्य एकवारं कृतवन्तः
कृतवन्तः वा भगिनि अस्तु अस्तु
तत्र द्विकर्मकधातवः
इति
भेदभगिनी वदतु
भाषापाकः इति पुस्तके तद्विषये तस्य कुत्र न जानाति भाषापाके प्रथम द्वितीय तृतीय अस्ति न तत्र केन कः अस्ति कुत्र अस्ति न जानामि
हेग्रे मौर्यस्य पुस्तकं भाषापाकः समीचीनं भगिनि प्रायशः तत्र तदपि तत् पुस्तकमपि पठनीयम् अस्ति किन्तु कदा पठामः न जानामि अस्तु पश्यामः अस्तु तर्हि अस्तु समीचीनं अस्तु अग्रे वंशीसुधा भगिनी अग्रे
अस्तु तत्र नूतनं न एतानि वाक्यानि सावधानं परिशीलयत
तत्र सावधानं किमस्ति
सावधानं परिशीलयत अस्ति
सावधानमिति पदं किम् अस्ति
सावधानं लक्ष्यं
भक्ति क्रियाविशेषणं कथं परिशीलयत सावधानं परिशीलयत अथवा तत्र द्वितीयविभक्तिस्थाने अन्या विभक्ति का भवितुम् अर्हति
भवितुं सावधानतया इति
तत्र किन्तु तत्र किं भवति सावधानता इति तस्य भावः सावधानता इति सावधानमिति भिन्नं सावधानता इति तस्य भावः सावधानता सावधानता इति पदस्य तृतीय सावधानतया परिशील्यत इदानीं तत्र तस्य भावः सावधानं साक्षात् सावधानं किन्तु सावधानतया तस्य भावस्य तृतीयविभक्ति अस्तु समीचीनम् अस्तु अग्रे
कर्तृप्रयोगः वाक्यमस्ति त्वम् उत्तिष्ठ भावे प्रयोगे वाक्यमस्ति त्वया उत्कीयताम् अस्ति
त्वया उत्कीयताम् तत्र भावे प्रयोगे एकः नियमः अस्ति तत्र नाम क्रियापदस्य विषये
तत्र क्रियापदं तु सर्वदा नपुंसकलिङ्गे अस्ति यतोहि तत्र भावे प्रयोगे कर्म नास्ति
नपुंसकलिङ्गे इति नास्ति किन्तु प्रथमपुरुष
एकवचनम् एकवचने एकवचने
एकवचने क्रियापदस्य लिङ्गभेदः नास्ति खलु अतः तत्र
क्रियापदस्य लिङ्गभेदः
सर्वदा प्रथमपुरुष एकवचनरूपमेव धरति तत्र केवलं तस्य एकमेव रूपं भवति भावे प्रयोगे अतः त्वया त्वया उत्तीयतां मया उत्तीयतां भवता उत्तीयतां सर्वदा
समानम्
उत्तीयतां सर्वदा समानम् अस्तु समीचीनम् अस्तु द्वितीयवाक्यमपि पठतु भगिनि.
सैनिकाः सैनिकाः उच्यन्ताम् अस्ति. सैनिकैः सैनिकैः उच्यताम्
युद्ध इति प्रायश तत्र दिवादिगणे अस्ति वा तत्र एव तत्र एतादृश
तत्र
नाम सैनिकः युध्यतां सैनिकैः सैनिकेन युध्यन्ताम् तत्र युद्धातुः कुत्र अस्ति इति प्रायशः दिवादिगणे भवति इति मन्ये.
द्विवादिगणे एव अस्ति महोदय. द्विवादिगणे एव युद्ध अतः युध्यताम् इति
समीचीनम्. अतः युध्यतां द्विवादिगणे अस्ति चेत् रूप तत्र समानरूपं भवति.
समीचीनम्.
अस्तु अग्रे नरेश महोदय अग्रे.
महोदय यूयम् उपविशत यूयम् उपविशत अत्र बहुवचना अस्ति तस्य तृतीयविभक्ति बहुवचने युष्माभिः
युष्माभिः
अपि च उपविश्यतां तु प्रथमपुरुषे एकवचनम् अस्ति उपविश्यतां युष्माभिः भावे प्रयोगे प्रथमपुरुष एकवचने अस्ति.
कथं जानीमः एषः भावे प्रयोगः इति
उपविशत तत्र कर्मपदं नास्ति
न भवितुम् अर्हति
न भवितुम् अर्हति आम् अकर्मक उपविश अकर्मकधातुः अस्ति
अकर्मकधातुः अस्ति समीचीनं महोदय. अतः एव तत्र अकर्मकधातुः इति तत्र मूलविषयः. अकर्मकधातुः उपविशति इति अकर्मकधातुः उपविशति समीचीनम्. अस्तु अग्रे
रथाः चरन्तु रथाः बहुवचनम् अस्ति चरन्तु चरन्तु तत्र तु भवान् रथाः चरन्तु भवन्तः रथाः चरन्तु पूर्णवाक्यम् अस्ति परन्तु रथाः
किम् उक्तवान् भवान् इति किमर्थम् आगतं तत्र
कर्तृपदम् अस्ति चेत्
कर्तृपदम् अत्र यत् वाक्यम्
अच्छा ओके ओके रथाः चरन्तु आम् आम् रथाः चरन्तु तस्य तृतीयविभक्ति बहुवचन रथैः रथैः अपि च चरन्तु तस्य प्रयोगे चर्यताम्
तत्र रथाः चरन्तु तत्र कर्तृपदं किमस्ति
रथाः
यदि तत्र भवान् इति अस्ति चेत् रथान् इति आसीत् चेत् तत्र चारयन्तु चारयन्तु इति भवेत् यतोहि तत्र णिच् खलु
निजन्तम्
किन्तु एतत् साक्षात् यतः अहं चरामि इति तत्र सः चरति धेनुः चरति रथाः चरन्ति अत्र लोट्लकरे रथाः चरन्तु इति अस्ति समीचीनम्. अस्तु अस्तु अग्रे तत्र वेदा भगिनी अग्रे
महोदय रथाः चरन्तु बुधाः भोगेषु न रमन्ताम् बुधाः भोगेषु न रमन्ताम् बुधैः भोगेषु न रम्यताम् भावे प्रयोग रम धातु अकर्मकधातु अस्ति तदेव तस्य रूपं भवति भावे प्रयोगे तस् क्रियापदमस्ति रमन्ताम् लोट्लकारस्य रूपं कर्तरिप्रयोगे कर्मणि प्रयोगे तस्य रूपं भवति प्रथमपुरुषे एकवचनरूपं नपुंसकलिङ्गे रम्यताम् इति रूपम्
नपुंसकलिङ्गे
न रम्यतां प्रथमपुरुषे एकवचन एवं रूपम् आयाति
समीचीनं अतः तत्र अपि भोगेषु इति तस्य परिवर्तनं
सप्तमी बहुवचनरूपम् अस्ति तस्य कोऽपि परिवर्तनं न भवति तस्य
न भवति अस्तु अस्तु अतः तत्र भूतैः भोगेषु न रम्यताम् अस्तु समीचीनं किं
त्वं निमित्तमात्रं भव त्वं निमित्तमात्रं भव भूधातु तस्य अकर्मकधातु अस्ति तदेव तस्य रूपं भवति त्वम् इत्यस्य त्वया निमित्तमात्रेण तस्य निमित्तमात्रेण किमर्थं तृतीया वदति इत्युक्ते त्वं निमित्तमात्रं तत्र विशेषणविशेषणभावम् अस्ति वा तत्र महोदय
समीचीनं भगिनि तत्र निमित्तमात्रं कः अस्ति कः निमित्तमात्रम् अस्ति
त्वं निमित्तमात्रमस्ति
त्वम् एव निमित्तमात्रम् इत्युक्ते कः त्वम् अतः निमित्तमात्रं विशेषणं
तदेव त्वया तृतीया विभक्ति त्वया निमित्तमात्रेण भूयतां भव इत्य तस्य भूधातुतः आयाति भूयतां भूय इति अङ्गं भवति भूयताम् इति लोट्लकाररूपम् आयाति
समीचीनं भगिनि तत्र अन्यत् सरल उदाहरणं स्वीकुर्मः तत्र उत्तमः बालकः इति वदामः तत्र विशेषणं किं विशेष्यं किम्
उत्तमः बालकः उत्तमविशेषणम् उत्त बालकः विशेष्यं
विशेष्यं समीचीनम् इदानीं तत्र उत्तमः बालकः उत्तमः इति वदामः कः उत्तमः
बालकः उत्तमः
बालकः एव उत्तमः अतः एव तत्र त्वं निमित्तमात्रं भव निमित्तमात्रं कः त्वम् एव
त्वमेव
कः निमित्तमात्रं भव त्वं निमित्तमात्रं भव तत्र त्वम् इति विशेष्यं निमित्तमात्रम् इति
तस्य अर्थः कः तस्य वाक्यस्य अर्थः कः त्वं निमित्तमात्रं भव इत्युक्ते त्वं निमित्तं निमित्तस्य कारणं भव इति वा
यत् करणीयं केवलं तत् कुरु इति मन्ये तत्र निमित्तं नाम
लैक् योर् रीज़न् योर् एवं वा
निमित्तमात्रं नाम तत्र केवलं तत्र
तत्र इन्स्ट्रुमेण्ट् इति अर्थे भवति वा महोदय केवलं
हा तदपि समीचीनं भवति
इन्स्ट्रुमेण्ट् इन्स्ट्रुमेण्ट्
युआर् रेस्पान्सिबल् जड्ज् करेक्ट्
इट् विल् बी डन् थ्रू यु
करेक्ट्
केवलम् उपकरणम् इति
एकः अपि द्वितीयमस्ति तत्र नाम कर्म कुरु किन्तु कर्मस्य फलं मा अपेक्षतु अस्ति खलु अतः तत्र क्रिया इति कारणं क्रियायाः फलम् इति कार्यं किन्तु केवलं तत्र कारणे एव तिष्ठतु नाम निमित्तमात्रं नाम कार्यं तु किन्तु तस्य फले फलस्य अपेक्षा मा करोतु अपि भवति निमित्तमात्रं भव इति
धन्यवादः
अतः तत्र अनेकान् अनेके अर्थाः सन्ति इति अनेकविधः अर्थाः सन्ति सर्वं साधुः इति मन्ये यतोहि एतादृशवाक्यनि यत् शास्त्रे भवति तस्य एकः एव अर्थः इति न वक्तुं शक्नुमः लौकिकवाक्यस्य एकः एव अर्थः तथापि तत्र प्रायशः वादः भवति किन्तु शास्त्रीयवाक्येषु तत्र अनेके विधाः अर्थाः भवितुम् अर्हन्ति अस्तु अग्रे अग्रे तत्र सुजाता भगिनी अग्रे
हा महोदय यूयं भोगेषु न रमध्वं यूयं मध्यमपुरुष बहुवचनमस्ति भोगेषु न रमध्वं तदपि बहुवचनम् अस्ति
रमध्वम् इति अस्ति रमस्व इति नाम अस्ति
रम यूयम् अस्ति बहुवचनमस्ति इत्यनेन रमध्वं भवति
समीचीनम् अस्तु
यूयम् इत्यस्य तृतीया विभक्ति भवति युष्माभिः भोगेषु न रम्यताम् रम् धातुतः कर्मणि प्रयोगे रम्यतां भवति प्रथम पुरुष एकवचने
किमर्थं प्रथमपुरुष एकवचने अस्ति
अकर्मकधातु अस्ति राम धातु
रमते इति अकर्मक आत्मनेपदि धातु
धातुः
रमति अत्र रम्यताम् भावे प्रयोगः एव भवति सूत्रस्य समीचीनम् अस्तु अग्रिमम्
सर्वे योगार्थं यतन्ताम् सर्वे बहुवचनमस्ति सर्वप्रदस्य सर्वे योगार्थं यतन्ताम् इत्युक्ते सर्वैः तृतीयाविभक्ति भवति योगार्थमेव भवति नपुंसकलिङ्गे अस्ति
यत् इति धातुः यत्य इति कर्मणि रूपं
कर्मणि
तत्र यतते यतते
यतते
यतेते यतन्ते
यतन्ते
एतादृशम् अभ्यासं कुर्मश्चेत् लाभः अस्ति तत्र यतते यतन्तां यततां यतेतां यतन्ताम् इति अतः अस्तु तर्हि तत्र योगार्थम् इति तस्य परिवर्तनं न जातं किमर्थम् योगाय योगार्थम् इति तस्य पदस्य अन्यरूपं समानार्थकरूपमस्ति योगाय खलु सः किमर्थं कृतवान् तत्र एतदर्थम् अथवा तत्र भोजनार्थम् अथवा भोजनाय इति समानार्थकपदमस्ति खलु तत्र योगाय अपि समीचीनम् एव भवति अतः तत्र चतुर्थीविभक्तिरूपं तादृशमेव तत्र तदर्थं योगार्थं तत्र कर्मपदं नास्ति सर्वे योगार्थं यतन्ताम् इति पदस् इति वाक्यस्य अर्थः कः इति कोऽपि वदति वा
सर्वे योगार्थं प्रयत्नं
तत्र योगार्थं नाम योगं कुर्वन्तु इति वा नाम योगासनं कुर्वन्तु वा अथवा
योगार्थः योगार्थं
योगार्थं
योगसाधनम्
अतः योगासनं कुर्वन्तु इति वा अथवा किम्
योगासन इति न योग तत्र भक्तियोग कर्मयोग मनयोग इति उक्तत्वा
तदेव
यथा भवती अधुना उक्तवती साधनम् इति अपि भवति योगं करोतु इति तत्र मार्गं अनुसरतु इति
योगाय तत्र नाम योगाय यतन्तां योगः नाम द्वयोः एकीकरणं खलु एकीकरणमेव योगः नाम भिन्नपदार्थः स्तः भिन्नो पदार्थौ स्तः तयोः एकीकरणमेव योगः खलु योगः नाम युक्तिः योगः अत्र अस्ति तत्र किं जीवात्मा परमात्मा इति तयोः योगः तत्र तदर्थं यतन्तां प्रयत्नं कुर्वन्तु तत्र एकमेव अस्ति इति चिन्तनं कुर्वन्तु अस्तु समीचीनम् अस्तु अग्रे धन्यवादः भगिनी अग्रे ललिताकुमारी भगिनी
आं महोदय भवान् कदापि न खिद्यताम् भावे प्रयोगे भवता कदापि न खिद्यताम्
तत्र समानरूपं खिद्यते खिद्यते इति अस्ति समीचीनं खिद् इति धातुः दिवादिगणे दिवादिगणे अस्ति इति मन्ये अतः तत्र पुनः तत्र रूपभेदः नास्ति
गणः अहं न जानामि
चिन्ता मास्तु भगिनि तत् किन्तु साधारणतया तत्र दीवादिगणे अस्ति चेत् तत्र किं भवति किद् यकारः हा चिन्ता मास्तु भगिनि किन्तु खिद्यते खिद्यतां समीचीनं अस्तु
यकारः यकारः अस्ति खलु महोदय खिद्यते
अतः एव
प्रयोगे परिवर्तनं करोमि चेत् अपि या यकारः एकः एव भवति
सत्यं भगिनि अतः एव
वन्दते वन्द्यते खिद्यतां खिद्यतामेव
इति अस्ति सत्यं भगिनि अतः अतः एव तत्र अपि तत्र किद् इति तत्र तत्र तुदादिगणे अपि एक धातुः अस्ति किन्तु तत्तु सः तु परस्मैपदीधातुः अस्ति किन्तु एषः किद्यताम् इति यदस्ति किद्यताम् इति लोट्लकाररूपम् अस्ति चेत् तद् आत्मनिपदीधातु अतः अतः तुदादिगणधातुः न किन्तु दिवादिगणधातुः एव अतः समीचीनम् अस्तु भगिनि अग्रिमम्
अग्रिमं यूयं मिथ्याचाराः मा भवत भावे प्रयोगे युष्माभिः मिथ्याचारैः मा भूयताम्
मिथ्याचाराः इति पदस्य सम्बन्धः तत्र कीदृशपदमस्ति मिथ्याचारः कुत्र
विशेषणभावः अस्ति
यूयम् इति पदं विशेष्यं मिथ्याचाराः
मिथ्याचाराः विशेष्यं भवति यूयं मध्यमपुरुषस्य बहुवचनमस्ति अतः भावे प्रयोगे युष्माभिः तृतीया विभक्तौ भवति मिथ्याचाराः अपि विशेषणमस्ति अतः तत्पदमपि मिथ्याचारैः तृतीया विभक्ति बहुवचने एव भवति मा इति अव्ययं भवता मध्यमपुरुष एकवचनं लोट्लकारः क्रियापदमस्ति भावे प्रयोगे भूयताम् इति भवति प्रथमपुरुषे एकवचनम् एव भवति भावे प्रयोगे क्रियापदं सदा
सर्वदा समीचीनं उत्तमम् अपि तत्र सर्वं समीचीनं भगिनि अपि मिथ्याचाराः नाम यः मिथ्यायाः आचरं करोति सः मिथ्याचारः इति तत्र सः प्रायशः मिथ्यायाः आचरः अस्तु समीचीनमस्ति अतः तत्र वयं बहु किमपि अद्य कृतवन्तः अस्तु तर्हि तत्र अत्र एव विरमाम सर्वेभ्यो नमः सर्वेषां धन्यवादाः अग्रिमे वर्गे मिलामः तर्हि अस्तु तत्र एकनिमिषं
धन्यवादः महोदय नमस्कारः
अग्रिमत्रं कोऽपि वदेत् तत्र वंशीसुधा भगिनी वदति वा नो चेत् अस्तु वेदा भगिनी वदतु भगिनि
एकनिमिष महोदय हरिः ओम् पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय हरिः ओम्
धन्यवादः भगिनि
धन्यवादः
नमस्कारः
धन्यवादः।